एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा प्रधानमन्त्री केपी शर्मा ओली चीनदेशस्य प्रधानमन्त्रिणः ली छ्याङ इत्यस्य मैत्रीपूर्णायां निमन्त्रणायां परश्वः 17 दिवसात् 20 दिवसं यावत् चीनदेशस्य औपचारिकं भ्रमणं विधास्यति। भ्रमणस्य क्रमे प्रधानमन्त्रिणा ओलिना चीनदेशस्य राष्ट्रपतिना सी जिनपिङ इत्यनेन सह मेलवार्ता करिष्यते इति परराष्ट्र मन्त्रालयेन ज्ञापितं वर्तते। प्रधानमन्त्रिणा ओलिना चीनदेशस्य समकक्षिणा ली इत्यनेन सह द्विपक्षीयां वार्तां विधाय द्विपक्षीयस्य पारस्परिक हितस्य विविधेष् विषयेष् विमृक्ष्यते। प्रधानमन्त्रिणः ओलिनः चीनदेशस्य राष्ट्रिय जनकांग्रेस स्थायी समितेः अध्यक्षेण झाओ लेजी इत्यनेन सहापि मेलवार्तायाः कार्यतालिका वर्तते। भ्रमणस्य क्रमे प्रधानमन्त्री ओली पेकिङ विश्वविद्यालये सम्बोधयिष्यति। एवमेव प्रधानमन्त्री ओली बेजिङ वर्तिनः नेपाली राजदूतावासस्य चाइना काउन्सिल फर द प्रमोशन अफ इन्टरनेशनल ट्रेड संस्थायाः नेपाल उद्योग वाणिज्य महासंघस्य संयुक्तायोजनायां सम्पत्स्यमानं नेपाल चीन व्यापार मञ्चं च सम्बोधयिष्यति। प्रधानमन्त्रिणः पत्नी राधिका शाक्यः अपि प्रधानमन्त्रिणा सहैव भविष्यति। प्रधानमन्त्रिणः ओलिनः नेतृत्वस्य प्रतिनिधिमण्डले परराष्ट्रमन्त्री डाक्टर आर्जु राणा देउवा, प्रधानमन्त्रिणः प्रमुख परामर्शदाता विष्णु रिमालः, प्रधानमन्त्रिणः आर्थिक सामाजिक परामर्शदाता डाक्टर युवराज खतिवड़ा, सांसदः, सर्वकारीय विशिष्ट अधिकारिणः, नैज क्षेत्राणां प्रतिनिधयः संचारकर्मिणश्च सहभागिनः भविष्यन्ति। प्रधानमन्त्रिणः नेतृत्वस्य प्रतिनिधिमण्डलम् अस्यैव मार्गशीर्ष मासस्य 20 दिवसे स्वदेशं प्रत्यागमिष्यति। प्रधानमन्त्री केपी शर्मा ओली विश्व शान्ते कल्याणाय च बुद्धस्य विचाराणां प्रचार प्रसारौ अनुसरणं च सर्वै कर्तव्यानि। लुम्बिन्यां ह्य आयोजिते लुम्बिनी विश्वविद्यालयस्य तृतीय विशेष दीक्षान्त समारोहे 20 वार्षिकोत्सव कार्यक्रमे च प्रधानमन्त्री ओली बुद्ध दर्शनं तथ्य सत्यतायांच आदृतमस्तीत्यतः विश्वशान्ते कल्याणाय च अस्य प्रचार प्रसारयोः आवश्यकतां प्रादर्शयत्। बौद्ध विश्वविद्यालयः बुद्धस्य जन्मस्थले एव न बुद्ध दर्शनस्य स्रोतस्थले एव अस्तीति चर्चयन् प्रधानमन्त्री ओली बौद्ध दर्शनम् अवलम्ब्य सर्वै संसारस्य कल्याणाय प्रवर्तनीयं, लुम्बिन्यः विश्वस्यैव शान्तिनगरत्वेन विकासो विधेय इति च प्रावोचत्। कार्यक्रमे शिक्षा विज्ञान प्रविधि मन्त्री विद्या भट्टराई उत्पादनस्य आपणेन सह संयोजनस्य कार्यं प्राथमिकतायां संस्थाप्य आत्मनिर्भरं भवितुं सहयोग प्रापणत्वेन जनशक्तेः उत्पादनाय बलं प्रदातुं विश्वविद्यालय प्रशासनम् अनुरुद्धवती। समारोहे प्रधानमन्त्रिणा ओलिना 92 वर्षाणां वयसः धम्मवती गुरुमाता लुम्बिनी विश्वविद्यालयेन प्रदत्तेन मानार्थ विद्यावारिधेः उपाधिना सम्मानिता आसीत्। चीनदेशे विद्यमानया परराष्ट्रमन्त्रिणा डाक्टर आर्जु राणा देउवा विधया चीनदेशस्य विदेशमन्त्रिणा वांगी इत्यनेन सह ह्य मेलवार्ता सम्भूता अस्ति। चीनदेशस्य सिचुआन प्रान्तस्य छेन्दुनगरे सम्भूते अनयोर्मेलने प्रधानमन्त्रिणः केपी शर्मा ओलिनः आसन्न चीनदेशस्य औपचारिकस्य भ्रमणस्य पूर्वकार्यस्य विषये द्वयोः देशयोः पारस्परिक हितस्य विविधेष् विषयेष् विमृष्टमासीत्। चीनदेशस्य विदेशमन्त्रिणः वांग इत्यस्य मैत्रीपूर्णायां निमन्त्रणायां परराष्ट्रमन्त्री डाक्टर राणा गत बृहस्पतिवासरे चीनदेशं गता अस्ति। तदवसरे परराष्ट्रमन्त्रिणा डाक्टर राणा विधया चीनदेशस्य प्रधानमन्त्रिणे वांग इत्यस्मै नेपाल भ्रमणस्य कृते निमन्त्रणा च कृता अस्ति। परराष्ट्रमन्त्री डाक्टर राणा अद्य स्वदेशं प्रत्यागच्छति। रामेछाप जनपदे जीपयानस्य दुर्घटनायां 5 जनाः मृताः सन्ति, घटनायां 3 जनाः आहताः वर्तन्ते। काष्ठमण्डपात् रामेछाप जनपदस्य बेतारी स्थानं प्रति प्रस्थीयमानं जीपयानं गोकुलगंगा ग्रामपालिकायाः 6 वडा क्षेत्रस्य फरपुर स्थाने ह्यो दुर्घटितं सत् गोकुलगंगा ग्रामपालिकायाः 4 वडा क्षेत्रस्य वडाध्यक्षेण सहितः 5 जनाः मृताः इति प्रहरी नायब उपरीक्षकः प्रदीप कुमार सिंह असूचयत्। दुर्घटनायां जीपयान चालकः मन्थली नगरपालिकायाः 10 वडा क्षेत्रस्य हीराबहादुर कार्की गोकुलगंगा ग्रामपालिकायाः 5 वडा क्षेत्रस्य कविता कार्की तस्या पुत्री 7-वर्षीया स्वस्तिका च मृताः सन्तीति प्रहरिणा ज्ञापितमस्ति। मृतस्य एकस्य सत्यापनं सम्भूतं नास्तीति प्रहरिणा ज्ञापितं वर्तते। रौतहट जनपदस्य लमहाखुलिकायां स्नानस्य क्रमे द्वौ जनौ मृतस्तः। रौतहट जनपदस्य गरूडानगरपालिकायाः द्वितीय ओडा क्षेत्रस्य गेडहीगुठी स्थितायां खोलिकायां स्नानस्य क्रमे निमज्ज स्थानीयौ अष्टादश वर्षीयौ जितेन्द्र शाह राजीव शाहश्च मृतौ इति प्रहरिणा ज्ञापितमस्ति। अद्य सनातन धर्मावलम्बिभि जनहि बाला चतुर्दशीति प्रसिद्धं पर्व समाद्रियमाणमस्ति। बाला चतुर्दशीति नाम्ना प्रथिताया मार्ग कृष्ण चतुर्दश्याम् तिथौ अद्य शतं बीजानि विकीर्यन्ते। अस्यां तिथौ सन्ततिभिः दिवंगतानां पितॄणां स्मृतौ काष्ठमण्डपस्य पाशुपतक्षेत्रस्य कैलासश्लेष्मान्तकस्थलम् अन्यत्र च विभिन्नेषु देवालयेषु च यत्य धान्यमुद्ग मास गोधूम मर्कटान प्रेङ्गु निवाराश्चेति धान्य सप्तकेन युक्तानि शतं बीजानि विकीर्यन्ते। पर्वण पूर्वदिने ह्य त्रयोदश्यां तिथौ भक्तजना आरात्र महादीपं प्रज्वाल्य भजन कीर्तन पुरस्सरं जागरणम् अकुर्वन्। भक्तै पुनः अद्य चतुर्दश्यां प्रातः स्नात्वा शतं बीजानि विकीर्यमाणानि सन्ति। मार्ग कृष्ण चतुर्दश्यां तिथौ शतं बीजानां विकीरणेन पितरः सद्गतिं लभन्ते। तदीयः सन्ततयः पितॄणाम् आशीर्वादैः धनधान्य सम्पन्नः भवन्तीति च धार्मिक विश्वासो वर्तते। बाला चतुर्दश्यां तिथौ काष्ठमण्डप उपत्यकाया सह आराश्रम प्रायः सर्वेषु शिवालय परिसरेषु अपि दिवंगतः पितृकैः सन्ततिभिः शतं बीजानि विकीर्यमाणानि सन्ति। अस्मिन् अवसरे काष्ठमण्डपस्य पाशुपतक्षेत्रे महत् मेलापकम् आयोजितमस्ति। निर्वाचनायोगेन श्वः रविवासरे त्रयस्त्रिंशत् जनपदानां स्थानीयस्तराणां चतुश्चत्वारिंशत् पदानां कृते सम्पत्स्यमानस्य उपनिर्वाचनस्य कृते पूर्वकार्यं प्रपूरितमस्तीति ज्ञापितं वर्तते। श्वः रविवासरे प्रातः सप्तवादनात् अपराह्नस्य पञ्चवादनं यावत् मतदानस्य समयः निर्धारितः अस्तीत्यतः निर्धारिते समये एव सर्वैः मतदातृभिः मतदानं कृत्वा निर्वाचनं सफलं विधातुम् आयोगेन अनुरुद्धमस्ति। निर्वाचनायोगेन आसन्न स्थानीयस्तरस्य उपनिर्वाचनस्य मतगणनायाः अद्यावधिक परिणामः वैव सञ्जाले द्रष्टुं शक्यते इति व्यवस्था विहिता अस्ति। मतगणनायाः परिणामस्य विषये साधारणजनेभ्य संसूचनाय वैव सञ्जाले परिणाम स्थापनाय आयोगेन व्यवस्था विहिता अस्ति इति आयोगस्य प्रवक्ता सहसचिवः नीता पोखरेल अर्यालः अज्ञापयत्। अद्यतः काष्ठमण्डपस्य त्रिभुवन विश्वविद्यालयस्य क्रिकेट क्रीडा प्रांगणे एनपीएल नामाख्या नेपाल प्रीमियर लीग क्रिकेट स्पर्धा प्रारभमाणा वर्तते। अद्य पूर्वाह्नस्य एकादशवादने उद्घाटन सत्रे विराटनगर किंग्स जनकपुर बोल्ट्स क्रीडा समूहयोः मध्ये प्रतिस्पर्धा जायमाना अस्ति। क्रीडायाः सम्पूर्ण पूर्व कार्याणि प्रपूरितानि सन्ति। उद्घाटन क्रीडायाः सर्वा चिटिकाः विक्रीताः सन्ति इति नेपाल क्रिकेट संघेन ज्ञापितं वर्तते। इति समाचारः।